नमस्सर्वेभ्यः. मङ्गलश्लोकः. ओं गुणातीतोऽपि सः त्रिगुणसतिपस्तक्षरमया त्रिमूर्तिर्यः सर्गस्थितिविलयकर्माणि तनुते कृपापारावार परमगति एकस्त्रिजगतां नमस्तस्मै कस्मै चिदमितमहिम्नि पुरविदे. अस्तु, तत्र गतसप्ताहान्ते आकस्मिकं किमपि आपतितम्, अतः तत्र पूर्वसूचनार्थं समयः न लब्धः. तथापि रक्षाभगिनी तत्र वर्गसञ्चालनसम्भारं स्वीकृतवती इति धन्यवादाः. तत्र सम्यक् पुनरावर्तनं जातम् इति मन्ये. किञ्चिदपि किञ्चित् ध्वनिमुद्रणं मयापि श्रुतं. तत्र किञ्चिदिव भाव इति पदस्य पदार्थविषये किञ्चित् वक्तव्यम् इति भाति. पुनः एकवारं संक्षिप्तरूपेण तत् पश्यामः, तदनन्तरम् अग्रेसरामः.
महोदय, क्षम्यतां, मुद्रणस्य आरम्भः कृतः वा?
आं भगिनि, धन्यवादः. आम्, आरम्भः कृतः, धन्यवादः. अस्तु, तर्हि तत्र अस्माभिः किम् उक्तमासीत् इत्युक्ते तत्र भावपदस्य को अर्थः नाम तत्र द्रव्यत्वम् इति उक्तम्. द्रव्यत्वम् इति तु केवलं शब्दस्वरूपं पदं, तस्य अर्थः कः, अभिधेयः कः, कथं ज्ञायते द्रव्यत्वम् इति पदस्य दर्शनेन तस्य कः अभिधेयः इति ज्ञातुं शक्यते वा? नाम तत्र किमपि व्युत्पत्तिलभ्यः अर्थः अस्ति वा? व्याकरणधिया एव अर्थं ज्ञातुं शक्यते वा इति प्रश्नः. शक्यते एव. कुतः इति चेत् तत्र प्रत्ययस्य अर्थं स्वीकृत्य एव द्रव्यत्वम् इति पदस्य को वा अर्थः इति ज्ञातुं शक्यते. तत् तस्य भावस्त्वतलौ इति सूत्रे तस्य विवरणं कृतं. परन्तु तत्पूर्वं किञ्चिदिव सामान्यरूपेण भावपदस्य तत्र विभागः, तत्र अर्थः व्याकरणे, व्याकरणशास्त्रे अर्थद्वयं वर्तते. तत् पश्यामः सामान्यरूपेण. तत्र सामान्य तत्र व्यवहारे तु भावपदस्य बहवः अर्थाः सन्ति. बहुवर्थकः शब्दः बहवः अर्थाः सन्ति सामान्यव्यवहारे. तत्र कारिका वर्तते, कारिकां वदामि, तत्र स्पष्टमेव अस्ति. कारिका अस्ति, भावपदार्थसत्तायां क्रियाचेष्टात्मयोनिषु विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु इति अस्ति. भूति अभिप्राय, भूत्यभिप्रायजन्तुषु. पुनः एकवारं, भावपदार्थसत्तायां क्रियाचेष्टात्मयोनिषु विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु. नाम तत्र एतादृशाः अर्थाः सन्ति, भावपदार्थः, सत्ता, क्रिया, चेष्टा, एवमेवं स्वभाव, भूति, अभिप्राय, जन्तवः, बहवः अर्थाः सन्ति. तत्तु सामान्यव्यवहारे. व्याकरणशास्त्रे अर्थद्वयं वर्तते भाव इति पदस्य अर्थद्वयं. प्रथमं तावत् तत्र क्रिदन्तप्रकरणे भावपदस्य भिन्नः अर्थः. अन्यच्च तत्र तत्र तद्धितान्तप्रकरणे तस्य भावपदस्य भिन्नः अर्थः. तर्हि अस्माकं तत्र लकारप्रकरणे अथवा तत्र भुवादिप्रकरणे अथवा कृदन्तप्रकरणे तत्र भावपदस्य भिन्नः अर्थः. तत्र पश्यामः, तत्र पदमस्ति हसनं, हसनं हस्धातोः, तत्र ल्युट् इति, तत्र भाव अर्थे ल्युट् इति यदा प्रयोगः क्रियते, नाम यदा प्रत्ययस्य योजनं क्रियते, तदा हस् योग ल्युट् इत्यनेन तत्र हसनम् इति पदस्य निष्पत्तिः भवति. तर्हि हसनम् इति पदस्य को वा अर्थः इति प्रश्नः उदेति. यः भावसाधनं, तर्हि एतस्य को वा अर्थः इत्युक्ते भावार्थः, भाव एव अस्य अर्थः. तत्र भावार्थे एषः प्रत्ययः आगतः. परन्तु भाव नाम किम् इत्युक्ते, भाव नाम केवलं धात्वर्थः. भाव इति पदस्य कृदन्तप्रकरणे धात्वर्थः इति अर्थो भवति. हस् धातोः यः अर्थः, तदेव हसनम् इत्यस्यापि अर्थो भवति. हसनम् इत्यस्य अर्थः भावः. तर्हि अत्र केवलं कृदन्तप्रकरणे सामान्यरूपेण वदामः चेत् भाव इति पदस्य धात्वर्थः एव अर्थः, धात्वर्थः. अस्तु, तत्रापि किञ्चिदिव भेदः अस्ति. तत्र सूक्ष्मं मयापि न एतावत्पर्यन्तम् अध्ययनं कृतं, परन्तु किञ्चिदिव दिग्दर्शनरूपेण वदामि. भवन्तः अपि चिन्तयन्तु, तत्रापि तत्र हसनम् इति अस्ति, अन्यच्च भावे प्रयोगः हस्यते इत्यपि अस्ति खलु. तर्हि हसनमित्यस्यापि भावार्थः, हस्यते इत्यस्यापि भावार्थः चेत् तयोः कः भेदः इति प्रश्नः उदेति. हसनमित्यस्य को वा अर्थः, हस्यति इत्यस्य को वा अर्थः, द्वयोः अपि धात्वर्थः एव अर्थः, भावार्थः एव अर्थः चेत् कः भेदः इत्युक्ते, तत्र हसनम् इत्युक्ते अत्र सिद्धावस्थापन्नभावः इति वैयाकरणः वदन्ति. नाम तत्र क्रिया सिद्धा जाता, हसनम् इति सत्त्वभूतभावः इति उच्यते, सिद्धावस्थापन्नभावः. इदानीं करणीयं नास्ति, कृतमेव हसनम् इति. अन्यच्च हस्यति इत्यत्र कर्तव्यम् अस्ति, हस्यति क्रियते, अत्र साध्यावस्थापन्नभावः. तत्र हसनं साध्यम् इत्यर्थे किञ्चिदिव, तस्मिन् अर्थे साध्यावस्थापन्नभावः इति उच्यते. भवतु नाम, तर्हि तत्र कृदन्तप्रकरणे भावपदस्य सामान्यरूपेण धात्वर्थः एव अर्थः, परन्तु तत्र तद्धितान्तप्रकरणे तु अस्माभिः किम् उक्तं नाम, तत्र त्वकल् प्रत्ययः तद्धितप्रत्ययः. तर्हि तत्र किं कः अर्थः इत्युक्ते, तत्र दीक्षिताः वदन्ति, तत्र भट्टोजीदीक्षितस्य दीक्षितानां तत्र सूत्रवृत्तिः किमस्ति, का अस्ति इत्युक्ते, प्रकृतिजन्यबोधे प्रकारो भावः. प्रथमवारं तत्र कैयतेन तादृशी एव वृत्तिरचिता, तद् अनुसृत्य एव अत्र तत्र दीक्षितानामपि सूत्रवृत्तिः वर्तते, प्रकृतिजन्यबोधे प्रकारो भावः. तर्हि अत्र द्रव्यत्वम् इत्युक्ते, तर्हि द्रव्यत्वम् अत्र त्वप्रत्ययस्य या प्रकृतिः भूतशब्दः कः इत्युक्ते द्रव्य इति. तर्हि द्रव्य इति पदस्य कथनेन कीदृशं ज्ञानं जायते, अस्माभिः पूर्वं केवलम् एकवारं संस्कृतरूपेण वदामि. कीदृशं ज्ञानं जायते इत्युक्ते, यदा द्रव्य इति वदामः तदा द्रव्यत्वविशिष्टद्रव्यत्वव्यक्तिः इति ज्ञानं जायते. नाम तत्र द्रव्यत्वविशिष्ट, तत्र द्रव्यम् इति तु शब्द आकारः इति उच्यते, शब्दस्वरूपं, परन्तु ज्ञानस्य स्वरूपं किम् इत्युक्ते, तत्र द्रव्यत्वनिष्ठप्रकारतानिरूपित द्रव्यत्वव्यक्तिनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति अर्थः भवति. तत्र समवायसम्बन्धस्यापि तत्र संसर्गता अपि वक्तुं शक्यते, परन्तु संक्षिप्तरूपेण वदामः चेत् प्रकारतानिरूपितविशेष्यतानिरूपकं ज्ञानम् इति. तर्हि तादृशे ज्ञाने द्रव्यत्वम् इति पदार्थः, अत्र शब्दस्वरूपस्य चिन्तनं नास्ति, कश्चन पदार्थः नाम जातिः अस्ति द्रव्यत्वं, तत्र जातौ प्रकारता वर्तते, अतः जातिः द्रव्यत्वजातिः प्रकारीभूतः धर्मः, जातिः सामान्य धर्मत्वं नाम तत्र वृत्तित्वसामान्यं लक्ष्यीकृत्य धर्मः इति उच्यते. नाम यत्किमपि वस्तु भवतु, पुस्तकं भवेत्, पुस्तकम् उत्पीठिकायां वर्तते चेत् तत्र पुस्तके वृत्तित्वम् अस्ति इति कृत्वा पुस्तकं धर्मः. तर्हि वृत्तित्वसामान्यम् उद्दिश्य धर्मः इति उच्यते. अस्तु, तर्हि तत्र वृत्तित्व अस्ति एव, तत्र प्रकारीभूतः धर्मः अस्ति एव. तर्हि प्रकारीभूतः धर्मः कः इत्युक्ते द्रव्यत्वजातिः, प्रकारीभूतः धर्मः तादृशे ज्ञाने, अतः तदेव भावप्रत्यय व्युत्पन्नशब्दस्य अर्थः. नाम द्रव्यत्वम् इति पदस्य अर्थः कः इत्युक्ते, द्रव्यत्वं तत्र यः प्रत्ययः अस्ति तस्य प्रत्ययस्य प्रकृतिभूत यः शब्दः द्रव्य, तस्य कथनेन यादृशं ज्ञानं जायते, तादृशे ज्ञाने यः धर्मः प्रकारः तदेव द्रव्यत्वम् इति पदस्य अर्थः. तर्हि तत्र ध्वनिमुद्रणे कोऽपि पृष्टवान् प्रकारीभूतं ज्ञानम् इति, ज्ञानं नास्ति, प्रकारीभूतः धर्मः इति वक्तव्यं. तत्र प्रकृतिजन्यबोधे प्रकारभावः, प्रकारीभूतः धर्मः एव तत्र द्रव्यत्वम् इति पदस्य अर्थः. पुनः परन्तु तत्र अस्माकं प्रसङ्गः कः आसीत् इत्युक्ते, द्रव्यत्वम् इति अस्माकं प्रसङ्गः नासीत्. अस्माकं प्रसङ्गः कः आसीत् इत्युक्ते, तत्र पदार्थानां विभागः द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति उक्तमासीत्. तत्र द्रव्यत्वम् इति पदमेव नास्ति, तर्हि इदानीम् अस्माभिः उक्तमासीत् द्रव्यम् अत्र यदस्ति यत् पदं तत्र द्रव्याणि विविधानि सन्ति, बहूनि द्रव्याणि सन्ति, अतः सप्त इत्यस्य तत्र न कोऽपि अर्थः निरर्थकः भवति। तर्हि तत्र द्रव्यम् इत्यनेन तत्र द्रव्यसामान्यं न उक्तं, तत्र विवक्षा का इत्युक्ते तत्र द्रव्यत्वम् एव विवक्षा। अतः अस्माभिः उक्तमासीत् एषः भावप्रधानः निर्देशः। तर्हि इदानीं द्रव्यम् इति पदमस्ति, अत्र द्रव्यत्वं नास्ति, तर्हि प्रकृतिजन्यबोधे प्रकारोभावः इति व्युत्पत्तिलभ्य अर्थः अत्र न लभ्यते। तर्हि किञ्चिदिव भिन्नरूपेण अत्र अस्माभिः चिन्तनं करणीयम्। अत्र त्वप्रत्यय नास्ति इति कृत्वा त्वप्रत्ययप्रकृतिभूतशब्दस्य कथनात् यत् ज्ञानं जायते तस्मिन् ज्ञाने प्रकारीभूतो धर्मः भावः इति वक्तुं न शक्यते, कुतः द्रव्यमेव पदमस्ति, द्रव्यत्वं नास्ति एव। अतः अर्थ अत्र किं करणीयम् इत्युक्ते स्वार्थप्रकारीभूतो धर्मः भावः एवम् उक्तमासीत्। अत्र स्वार्थप्रकारीभूतो नाम अत्र द्रव्यमिति पदम्, तर्हि द्रव्यमिति पदस्य केवलं कथनेन स्वार्थ नाम द्रव्य इति पदस्य अर्थः स्वार्थः, स्वस्य अर्थः, तस्मिन् अर्थे प्रकारीभूतः धर्मः पुनः द्रव्यत्वमेव, अत्रापि तदेव अर्थः लभ्यते। परन्तु प्रकृतिजन्यबोधे प्रकारोभावः इति कथनात् एतादृशः अर्थः न लभ्यते, कुतः इति चेत् अत्र त्वप्रत्यय एव नास्ति। एतदेव किञ्चिदिव वक्तव्यम् आसीत्, किञ्चिदिव तत्र स्पष्टीकरणीयम् आसीत्। अस्तु, इदानीम् अग्रे सरामः। किमासीत् इत्युक्ते अस्तु, अत्र किञ्चित् पुनः एकवारं तत्र किञ्चित् संक्षिप्तरूपेण पुनरावृत्ति, तदनन्तरम् अग्रे सरामः। अत्र किम् अस्ति इत्युक्ते गुणवत्त्वं न द्रव्यसामान्यलक्षणम् आद्यक्षणे उत्पन्नविनश्चेदपि, तत्र चतुर्दशे पूते पश्यन्तु, त्रयोदशे पूते ननु तत्र अन्तिमं तत्र पङ्क्तिं पश्यतु, अन्तिमपङ्क्तिं ननु गुणवत्त्वं न द्रव्यसामान्यलक्षणम्। अस्माभिः एतत् परिशीलितमेव, कुतः इति चेत् तत्र आद्यक्षणे उत्पन्नविनष्टे द्रव्ये च अव्याप्तेरिति चेन्न गुणसमानाधिकरणसत्ताधीनजातिमत्वस्य विवक्षितत्वात् इति अस्माभिः दृष्टम्। एतेन किं भवति इत्युक्ते तत्र अतिव्याप्तेः निवारणं भवति। तथापि तत्र आक्षेपः कृतः ननुवपि ननु एवमपि एवं गुणसमानाधिकरणसत्ताभिन्नजातिमत्वं स्वीकृतं चेदपि तत्र एकं रूपं रसात् पृथिक् इति व्यवहारात् रूपादौ अतिव्याप्तिरिति चेत् नाम तत्र द्रव्यस्य लक्षणं, परन्तु गुणसमानाधिकरणसत्ताभिन्नजातिमत्वम् इति कथनात् केवलं द्रव्याणामेव सङ्ग्रहः न भवति, परन्तु एतद् लक्षणं गुणेषु अपि अतिव्याप्तं भवति इति। ननु एवमपि एकं रूपं रसात् कृतं व्यवहारात् रूपादौ अतिव्याप्ति, अस्माकं लक्ष्यमस्ति द्रव्यं, परन्तु रूपादौ एतत् लक्षणं गच्छति इति चेत् तत्र सिद्धान्ती वदति परिस्थितिः तादृशी नास्ति इति सिद्धान्ती वदति। अत्र पुनः एकवारं पश्यामः कथं वा तत्र अतिव्याप्तिः आसीत् इति किञ्चिदिव द्रष्टव्यं, पुनः तत्र तदनन्तरम् अग्रे करामि। अतिव्याप्ति कथमासीत् इत्युक्ते तत्र गुणसमानाधिकरणसत्ताभिन्नजातिमत्वम् इति उक्तमासीत्। तर्हि अत्र पृथक् रूपं पृथक् अथवा पृथक् रूपम् इति व्यवहारः भवति, कोऽपि वदति चेत् तत्र कीदृशी प्रतीतिः भवति इति प्रश्नः, कीदृशी प्रतीतिः भवति इत्युक्ते तत्र पृथक्त्वं रूपे अस्ति इति प्रतीतिः भवति इति पूर्वपक्षी वदति। तर्हि पृथक्त्वं रूपे अस्ति, रूपे गुणत्वमपि अस्ति, तर्हि पृथक्त्वं नाम गुणः, पृथक्त्वं नाम गुणः। अस्माभिः किम् उक्तमासीत्, गुणसमानाधिकरण गुणसमानाधिकरणसत्ताभिन्नजाति इति उक्तमासीत्। तर्हि अत्र रूपे पृथक्त्वसमानाधिकरणसत्ताभिन्नगुणत्वजाति अस्ति एव, गुणसमानाधिकरणसत्ताभिन्नजातिमत्वम् इति उक्तमासीत्। तर्हि रूपे किम् आयातम् इत्युक्ते गुणसमानाधिकरणसत्ताभिन्नजाति अस्ति वा न वा इति प्रश्नः। गुणसमानाधिकरणसत्ताभिन्नजाति अस्ति एव, गुणत्वजाति अस्ति एव। तर्हि गुणसमानाधिकरण अस्ति वा न वा गुणत्वजाति इत्युक्ते अस्ति एव, कुतः इति चेत् समाने अधिकरणे रूपे गुणत्वमपि अस्ति, पृथक्त्वमपि अस्ति. पृथक्त्वं नाम गुणः, पृथक्त्वं गुणः, गुणः अपि रूपे अस्ति. तस्मिन्नेव समाने अधिकरणे गुणत्वमपि अस्ति इति कृत्वा गुणत्वं गुणसमानाधिकरणजातिः. अपि च सत्ताभिन्नजातिरपि अस्ति, गुणत्वं सत्ता नास्ति, तर्हि गुणत्वं सत्ताभिन्नजाति, अतः लक्षणसमन्वयः भवति गुणत्वे. गुणत्वे लक्षणसमन्वयः, गुणत्व तत्र गुणसमानाधिकरणसत्ताभिन्नजाति गुणत्वम्, अतः जातिमत्वं द्रव्यस्य लक्षणम् इत्युक्ते गुणे अतिव्याप्तिः भवति. कुतः इति चेत् गुणे गुणत्व गुणत्ववत्त्वम् अस्ति एव, तर्हि अतिव्याप्तिः भवति इति पूर्वपक्षिणः आक्षेपः. तर्हि सिद्धान्ते इदानीं किं वदति इत्युक्ते, भोः न न तादृशी तादृशी परिस्थितिः नास्ति. अत्र किमस्ति इत्युक्ते, सिद्धान्ती वदति एकार्थसमवायादेव तादृशव्यवहारोपपत्तो गुणे गुण अनङ्गीकार. अत्र तत्र उक्तं पुनः प्रथमं, तर्हि गुणे गुण अनङ्गीकार सिद्धान्तिनां चिन्तनं किमस्ति इत्युक्ते, गुणे गुणः कदापि न वर्तते, गुणे गुणः कदापि न वर्तते. भवता यदुक्तं पृथक्त्वं रूपे अस्ति इति यदुक्तं, तत् न समीचीनं, तद् न स्वीक्रियते, तथा नास्ति एव, तथा न्यायसिद्धान्त नास्ति एव. गुणे गुणस्य अनङ्गीकारः न अङ्गीक्रियते. पुनः प्रश्नः उदेति, किमर्थं गुणे गुणस्य अनङ्गीकारः इति प्रश्नः उदेति, किञ्चित् चिन्तनं करणीयं. तत्र चिन्तनं किम् इत्युक्ते, तत्र इतोपि चिन्तनं करणीयमस्ति, परन्तु यत् मया ज्ञातं तत् चिन्तनं किम् इत्युक्ते, तत्र यथा रूपं पृथक् इति कोऽपि वदति, अथवा एकं रूपम् इति कोऽपि वदति, तत्र गुणे गुणः अस्ति इति उक्तं. नाम एकं रूपम् इति कथनस्य आशयः तदेव अस्ति, नाम रूपे पृथक्त्वम् अस्ति. एकं रूपम् इति कथनस्य आशयः तदेव अस्ति, नाम एकत्वं रूपे अस्ति. परन्तु तादृशव्यवहारः द्रव्यसापेक्षमेव सर्वदा भवति. यदि द्रव्यं नास्ति चेत् कदापि रूपमेव कदाचित् दृष्टं वा? विना द्रव्यं रूपं कदापि दृष्टं? न दृष्टमेव. विना द्रव्यं रूपमेव न दृष्टं चेत् विना द्रव्यं तत्र रूपे पृथक्त्वमपि न दृश्यते. तर्हि पृथक्त्वस्य या अनुभूतिः, या प्रतीतिः अस्माकं जायते, सा प्रतीतिः सर्वदैव द्रव्यसापेक्षमेव. कदापि अस्माभिः द्रव्यभिन्न द्रव्ये अवर्तमानं गुणं न दृष्टं, सर्वदैव द्रव्ये एव भवति. पृथक्त्वं रूपे अस्ति इति प्रतीतिः अपि सर्वदैव द्रव्यसापेक्षं भवति इति कृत्वा तत्र साक्षात् गुणे गुणः न वर्तते, गुणे गुणः वर्तते इति अङ्गीकारः नास्ति नैयायिकानां. कुतः इति चेत् स्वतन्त्ररूपेण गुणस्य अवर्तमानत्वात्, यदि स्वतन्त्ररूपेण वर्तते चेदपि एकः एकं द्वे त्रीणि इति वदामः, तर्हि स्वतन्त्ररूपेण नास्ति एव, सर्वदैव तत्र द्रव्ये एव भवति. तत्र द्रव्ये भवति चेत् द्रव्ये एव एकत्वं, तद् एकत्वमेव आदायरूपे एकत्वस्य प्रतीतिः इति नैयायिकानां चिन्ता. तदेव अत्र वदति एकार्थसमवायादेव, नाम तत्र एकस्मिन् अर्थे द्वयोः समवायः वर्तते, नाम द्वौ अपि एकस्मिन्नेव अर्थे समवेतौ समवेते. तर्हि अत्र नाम पृथक्त्वमपि द्रव्ये भवति, घटः भवेत्, घटे पृथक्त्वं, घटे रूपं, द्वौ अपि एकस्मिन् अर्थे घटे समवायेन सम्बन्धेन विद्येते. तर्हि तदेव एकार्थसमवायः. अस्य तत्र भिन्नरूपेण अत्र चिन्तनमपि क्रियते, किञ्चित् पश्यामः, परन्तु अभिप्रायस्तु केवलं तावदेव. तादृशी प्रतीतिः किमर्थं भवति इत्युक्ते, द्वौ अपि एकत्रस्थः इति कृत्वा एव एकं रूपं, रसात् पृथक् इत्याकारिका प्रतीतिः भवति. कुतः इति चेत् तत्र सामानाधिकरणे, एकार्थसमवायः नाम किम्? एकस्मिन् अर्थे द्वौ स्तः इत्यस्य को वा अभिप्रायः इत्युक्ते सामानाधिकरण्यम् अर्थः, समानम् अधिकरणं द्वयोः अस्ति इति कृत्वा तत्र द्वयोः अपि सामानाधिकरण्यं वर्तते. नाम पृथक्त्वे पृथक्त्वे रूपसामानाधिकरण्यं वर्तते, रूपे पृथक्त्वसामानाधिकरण्यं वर्तते. तत्र अधिकरणस्य भावः एव सामानाधिकरण्यम्. समानाधिकरणस्य भावः तयोः वर्तते इत्युक्ते पृथक्त्वस्य वर्तते, रूपस्य वर्तते. अतः तद् आदाय एव अस्माकं तादृशी प्रतीतिः भवति परन्तु पृथक्त्वं साक्षात् समवायेन सम्बन्धेन रूपेण वर्तते. केन रूपे वर्तते वा न वा इति प्रश्ने कृते वदामः रूपे वर्तते एव, पृथक्त्वं रूपे वर्तते एव, परन्तु समवायेन सम्बन्धेन न वर्तते. केन सम्बन्धेन वर्तते इत्युक्ते स्वाश्रयसमवेतत्वसम्बन्धेन वर्तते. नाम स्वं नाम पृथक्त्वं, तस्य स्वाश्रय तस्य आश्रय नाम घटादि, तत्र समवेतः समवेतं रूपं, रूपे समवेतत्वम् इति कृत्वा स्वाश्रयसमवेतत्वसम्बन्धेन पृथक्त्वं तत्र रूपे वर्तते. अतः रूपे वर्तते एव, रूपे वर्तते इति कृत्वा रूपं पृथक् इति प्रतीतिः जायते. परन्तु समवायेन सम्बन्धेन न वर्तते, परम्परासम्बन्धेन वर्तते. अतः एव अस्माकं तादृशी प्रतीतिः जायते. अतः न अतिव्याप्तिः इति ग्रन्थकारस्य इति सिद्धान्तिनां मतम् अस्तु. इदानीं पश्यामः तत्र सम्यक् तत्र स्पष्टं जातं वा न वा. लक्ष्मीभगिनी अत्र वदति वा तत्र अत्र आक्षेपः कः आसीत्, अतिव्याप्तिदोषः कः आसीत्, अन्यत् तदनन्तरम् अतिव्याप्तिदोषस्य निवारणं कथं कृतं, निवारणप्रकारः कः इति वदति वा.
अहं प्रयत्नं करोमि महोदय. अस्तु, अत्र गुणः गुणे वर्तते इति आक्षेपः अस्ति. इत्युक्ते गुणे प्रथमं गुणसमानाधिकरणं यदि वयं एकं रूपं रूपात् रसं रसं रसत्वं पृथक्त्वम् इति रूपात् रसं पृथक् इति तादृशकथनेन रूपे रूपे पृथक्त्वमपि आयाति, रूपे पृथक्त्वम् इति गुणम् आयाति इति आक्षेपं भवति. अतः सिद्धान्तिनः वदति एतादृशव्यवहारः, एतादृशप्रतीतिः कथा कदा जायते इत्युक्ते द्रव्यस्य अपेक्षया एव तादृशज्ञानं जायते. इत्युक्ते द्रव्ये एव रूपमपि अस्ति, द्रव्ये एव पृथक्त्वमपि अस्ति. यदि द्रव्यत्वम् इति अधिकारणं विना गुणः एव न भवति, साक्षात् गुणः न भवति एव. गुणं स्वतन्त्रतया गुणः तत्र नास्ति इति कृत्वा अस्तु.
सत्यमेव, किञ्चित् इतोपि किञ्चिदिव तत्र विशदीकरणीयम् इति मन्ये. तत्र भगिनी किञ्चिदिव अत्र विशदीकरोति वा.
आम् महोदय. तर्हि आक्षेपः कः इति भगिन्या उक्तमेव. पूर्वपक्षी आक्षिपति यद् एकं रूपम् इत्यस्यां प्रतीत्यां तु रूपे एकत्वम् आगच्छति इति कृत्वा गुणसमानाधिकरणसत्ता भिन्नजातिमत्वस्य आक्षेपः आगतः, तत्र अतिव्याप्तिः इति. तस्य उत्तरत्वेन सिद्धान्ती वदति गुणः इति सर्वदा द्रव्यसाक्षेपः, द्रव्ये एव वर्तते गुणः. गुणद्वयमपि एकत्वम् अपि च रूपं द्रव्यम् अवलम्ब्यैव तिष्ठति. एकस्मिन् अधिकरणे गुणद्वयम् अस्ति, तदेव एकार्थसमवायम्. एकार्थः इत्युक्ते एकस्मिन् द्रव्ये समवायेन गुणद्वयं तिष्ठति इति कृत्वा तत्र एकार्थसमवायात् गुणे गुणानङ्गीकारः, अपि च एकत्वं प्रतीत्यानुगुणम् एकत्वं रूपे वर्तते. एकत्वम् इति विशेषणं, रूपम् इति विशेष्यं, तर्हि विशेषणं विशेषे वर्तते, किन्तु समवायेन न, अपि तु स्वाश्रयसमवेतत्वसम्बन्धेन. एकत्वं द्रव्ये अस्ति चेत् स्वाश्रयम्, एकत्वस्य आश्रयः द्रव्यं, स्वाश्रयं, स्वाश्रयसमवेतः पुनः रूपम् इति गुणः, तर्हि एकत्वं रूपे स्वाश्रयसमवेतत्वेन वर्तते, यद्यपि गुणे गुणानङ्गीकारः.
सत्यमेव सत्यमेव, तत्र सत्यं. गुणे गुणानङ्गीकारः नाम गुणे समवायेन गुणस्य अनङ्गीकारः इति अभिप्रेतार्थः. अन्यत्र तत्र यदा तत्र वदामः एकत्वं रूपे वर्तते इति वदामः, तदा सम्बन्धः कश्चन सम्बन्धः कल्पनीयः भवति. तर्हि सम्बन्धः कथं क्रियते इत्युक्ते अनुयोगी अनुयोगिनी वर्तमानं धर्मम् आदाय सम्बन्धस्य कल्पनं क्रियते. अत्र एकत्वं प्रतियोगी कुत्रचित् एकत्वं वर्तते, रूपं तत्र अनुयोगी रूपे वर्तते इति कृत्वा अनुयोगी. तर्हि अनुयोगिनी रूपे वर्तमानं धर्मम् आदा धर्म एव सम्बन्धः. तर्हि रूपे वर्तमानः कीदृशः धर्मः इत्युक्ते स्वाश्रयसमवेतत्वं रूपे वर्तते, तदेव धर्मः. पुनः पश्यामः स्वं नाम पृथक्त्वं, तस्य आश्रयः द्रव्यं, तत्र समवेतं रूपं, तस्मिन् रूपे समवेतत्वं नामकं नामकः धर्मः वर्तते. तर्हि तत्र अनुयोगिनी वर्तमानधर्मपर्यन्तं गन्तव्यं. तर्हि रूपे अनुयोगिनी वर्तमानः स्वाश्रयसमवेतत्वं नामकं धर्मम् आदाय एव सम्बन्धस्य कल्पना भवति. एवं सत्यं सम्यगेव तत्र अवगतम् इति मन्ये
महोदय. अपि अत्र प्रतियोगी अनुयोगी इति यद् उपयुक्तं भवता, तत्र तु अधिकरणस्य विषयः खलु अनुयोगी इति.
सत्यमेव, अधिकरणं नाम तत्र सम्बन्धस्य सम्बन्धं स्वीकृत्य एवम् उक्तम् अनुयोगी प्रतियोगी. तर्हि अत्र सम्बन्धस्य सम्बन्ध नाम तत्र यद् आरभ्य सम्बन्धं क्रियते तत् प्रतियोगी भवति. तत्र परम्परासम्बन्धस्य एवं वैलक्षण्यं चिन्तनं, यद् आरभ्य सम्बन्धस्य आरम्भः यतः सम्बन्धस्य आरम्भः क्रियते तत् प्रतियोगी, यत्र सम्बन्धस्य अन्त्यः भवति तद् अनुयोगी. तर्हि अत्र अस्माकं किं कर्तव्यम् इत्युक्ते कः वर्तते कुत्र इति चिन्तनं. तर्हि इदानीं तत्र परम्परासम्बन्धः वृत्तिनियामकः सम्बन्धः प्रायः न भवति चेदपि अत्र विवक्षा अधीनम् अस्ति. अस्माकं विवक्षा इदानीं किम् इत्युक्ते पृथक्त्वं रूपे भवेत् इति विवक्षा अस्ति. पृथक्त्वं रूपे भवेत् वर्तेत इति अस्माकं विवक्षा अस्ति. तर्हि तथा विवक्षा अस्ति चेत् वृत्तित्वम् अस्माभिः पृथक्त्वे कल्पितं, तर्हि वृत्तित्वं कल्पितम् इति कृत्वा सः यः वर्तते तदेव सम्बन्धस्य प्रतियोगी भवति. यत्र वर्तते तदेव सम्बन्धस्य अनुयोगी भवति. भगिनि तदेव प्रश्नः खलु?
हा हा हा, समीचीनं महोदय. अभावस्य विषयः नास्ति.
न, अभावस्य विषयः नास्ति, अभावस्य विषयः नास्ति. समीचीनः प्रश्नः अस्तु. गुणे गुण अनन्ति. अस्तु, इदानीम् अग्रेसरामः. तर्हि इदानीं तत्र गुणग्रन्थः इति उच्यते. तत्र कथनस्य काचन रीतिः वर्तते. तत्र द्रव्यग्रन्थः, गुणग्रन्थः, एवमेवं पदार्थग्रन्थः, उद्देशग्रन्थः, लक्षणग्रन्थः, एवं नैयायिकानां कथनस्य रीतिः वर्तते. इदानीं तत्र गुणानाम् उद्देशः एतावत्पर्यन्तम् एतत् उद्देशग्रन्थः एव. अत्र लक्षणं न कृतं, नाम तर्कसङ्ग्रहग्रन्थमूले लक्षणं न कृतम् एतावत्पर्यन्तं. दीपिकायां लक्षणादिकम् अस्माभिः दृष्टं, व्याख्याने लक्षणादिकं दृष्टं, परन्तु एतावत्पर्यन्तं तर्कसङ्ग्रहग्रन्थस्य मूले लक्षणं न कृतम्. एतावत्पर्यन्तम् एषः उद्देशग्रन्थः एव. मध्ये तत्र कोऽपि आगतो वा?
हा, नमस्ते महोदय, रत्ना अस्मि.
अन्य कोऽपि? अस्तु, तर्हि एकवारम् अहं पठामि, तदनन्तरम् अन्यकोपि पठतु. तत्र चतुर्दशे पुटे तर्कसङ्ग्रहमूले रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः. एकवारम् अहं पठामि, तदनन्तरं पश्यामि. इदानीं दीपिकां पठामि. गुणं विभजति रूपेति द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः गुणत्वजातिमान् वा लघुत्व मृदुत्व कठिनत्वादिनां विद्यमानत्वा कथं चतुर्विंशतिगुणा इति चेत् न लघुत्वस्य गुरुत्वभावरूपत्वात् मृदुत्वकठिनत्वयो अवयवसंयोगविशेषरूपत्वात्. एतत् सर्वमपि सरलमेव वर्तते, परन्तु एकवारं शीघ्रं पठामः. तत्र सावित्री भगिनी तत्र पठितुमिच्छति वा? तत्र तर्कसङ्ग्रहं मूलग्रन्थम् अपि च दीपिकामपि पठित्वा प्रयत्नं करोति वा?
प्रयत्नं करोमि महोदय. अस्तु. रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिगुणाः इति मूलवाक्यं. दीपिका गुणं विभजते रूपेति द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः गुणत्वजातिमत्वा लघुत्वमृदुत्वकठिनत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिगुणा इति चेत् न लघुत्वगुरुत्वाभावरूपत्वात् मृदुत्वकठिनत्व कठिनत्वयोरवयवसंयोगविशेषरूपत्वात्. अस्तु महोदय,
तत्र द्रव्यकर्मभिन्नत्वे सति सामान्यमान् गुणः इति एकं लक्षणं, गुणत्वजातिमत्वम् इति अन्यत् लक्षणम्. इदानीं भवति गुणं विभजते, अत्र गुणस्य विभागवाक्यं नाम तत्र विभागोपि उद्देश्य एव अन्तर्भूतः, अवान्तरविभागः अस्ति अत्र गुणस्य विधा द्रव्य तत्र पदार्थानां विषये. इदानीं द्रव्यस्य विभागः अस्माभिः दृष्टम्, इदानीं गुणस्य विभागः क्रियते. द्रव्यगुणकर्म सामान्यविशेषसमवायभावः इति यदुक्तं तत्र पूर्वं, तत्र द्रव्यस्य विभागः कृतः, इदानीं गुणस्य विभागः क्रियते. विभागोपि उद्देश्य एव अन्तर्भूतः, पदान्तरविभागः. इदानीं लक्षणमस्ति द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः नाम तत्र सामान्यं, सामान्यं नाम जातिः. तर्हि सामान्यं कुत्र कुत्र वर्तते इत्युक्ते द्रव्यगुणकर्मषु एव वर्तते, द्रव्येषु वर्तते, गुणेषु वर्तते, कर्मसु वर्तते. तर्हि द्रव्यगुणकर्मसु वर्तते इति कृत्वा इदानीं सामान्यवान् इत्युक्ते तत्र गुणस्य लक्षणं न भवति, अतिव्याप्तं भवति. कुतः इति चेत् सामान्यं न केवलं गुणे वर्तते, द्रव्ये अपि वर्तते, कर्मणि अपि वर्तते इति कृत्वा तत्र अतिव्याप्तिः. अतः द्रव्यकर्मभिन्नत्वे सति इति सत्यन्तं निवेशनीयं. तर्हि द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः इति वदामः चेत् तत्र तत्र द्रव्यभिन्न गुणभिन्न कर्मभिन्न सामान्यवान् कः इत्युक्ते केवलं गुण एव अवशिष्यते. अतः एवं लक्षणं भवति. अथवा तादृश तत्र दीर्घं लक्षणं किमर्थं भोः, एवं गुणत्वजातिमान् जातिघटितं लक्षणमेव वदामः इति करोति चेदपि सम्यगेव, गुणत्वजातिमत्वं गुणस्य लक्षणं. परन्तु अस्माभिः यत्पूर्वम् उक्तं, गुणत्वजातिमत्वं यदि लक्षणं वदामः चेत् तत्र एतद् न व्यावर्तकं लक्षणम्. अस्माभिः पूर्वं दृष्टमासीत् लक्षणस्य स्वरूपं कीदृशं भवति इत्युक्ते, नाम लक्षणस्य प्रयोजनं किम् इत्युक्ते, व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इति अस्माभिः पूर्वं परिशीलितम् आसीत्. तर्हि गुणत्वं लक्षणम् इति वदामः चेत् तत्र इतरभेदानुवाकत्वं न भवति इति अस्माभिः पूर्वमेव दृष्टम्. इतरभेदानुवाकत्वं न भवति इति कृत्वा तत्र गुणत्वजातिनां तत्र व्यावर्तकं लक्षणं नास्ति, केवलं व्यवहारिकं लक्षणम् एवम् इति वक्तव्यम्. अन्यत्र तत्र लघुत्व मृदित्व कठिनत्वादीनां विद्यमानत्वात् कथम्, इदानीं चतुर्विंशतिर्गुणाः इति उक्तं, तत्र पूर्वं प्रश्नः उदेति भोः चतुर्विंशतिगुणाः इति उक्तं, तर्हि चतुर्विंशतिसङ्ख्या रूपे भवति वा, रसे भवति वा, गन्धे भवति वा, स्पर्शे भवति वा, किमर्थं चतुर्विंशतिगुणाः इति उक्तम्? अत्र समाधानं किं, कोऽपि वक्तुम् इच्छति वा? अत्र अस्माभिः किं सङ्ख्या तत्र गुणे भवति वा न वा, प्रश्नः प्रथमं.
भवति
अस्तु, अन्य कोऽपि
महोदय? चतुर्विंशति इति संख्या गुणः भूत्वा गुणे न भवति, किन्तु किम् अधिकसङ्ख्या अवच्छेदार्थम् इति किमपि वा?
अत्र तथापि वक्तुं शक्यते, परन्तु अत्र सम्यक् एव उक्तम्। इदानीमेव अस्माभिः किं दृष्टम् इत्युक्ते गुणे गुणः न भवति इति इदानीमेव अस्माभिः दृष्टम्। एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुण अनङ्गीकारात् इति अस्माभिः इदानीमेव दृष्टम्। अतः तत्र गुणे गुणस्य अनङ्गीकारः, चतुर्विंशतिसङ्ख्या अपि गुणः, तर्हि रूपे भवितुं नार्हति, न भवत्येव। तर्हि चतुर्विंशतिगुणः उक्तः, तर्हि अत्र किं तत्र सङ्गतिः नास्ति वा, किं विसङ्गतम् इदं वाक्यं वा इति प्रश्नः उदेति। अत्र इदानीं विवरणं न क्रियते, परन्तु अत्र चतुर्विंशति अत्र सङ्ख्या नास्ति। चतुर्विंशति नाम अत्र अपेक्षाबुद्धिविषयत्वम् इति उच्यते। अत्र अपेक्षाबुद्धि नाम किम् इदानीं तत्र न पश्यामः, परन्तु किञ्चिदिव दिग्दर्शनरूपेण वदामि। तत्र अत्र चतुर्विंशति इति गुणः सङ्ख्या न उक्तः, अत्र अपेक्षाबुद्धिविशेषः केवलं, तावदेव उक्तं। भवतु नाम तर्हि, परन्तु गुणस्तु नास्ति, सङ्ख्या अत्र सङ्ख्यारूपे रसे गन्धे स्पर्शे न भवति। अन्य कोऽपि आगत वा मध्ये? ध्वनिः श्रुतः। अस्तु, तर्हि इदानीं लघुत्व मृदुत्व कठिनत्वादीनां विद्यमानत्वात् चतुर्विंशतिः उक्तं, परन्तु लघुत्वम् अस्ति खलु? लघुत्वं तु अत्र वाक्ये नास्ति, नाम रूपरसगन्धस्पर्शसङ्ख्या इत्यादि ये गुणाः उक्ताः तेषु लघुत्वं न निवेशितं, तेषु मृदुत्वं न निवेशितं, तेषु कठिनत्वं न निवेदि अन्येपि भवेयुः, तत् कथं सङ्गच्छते इति प्रश्ने सति किं वदति इत्युक्ते, भोः तथा नास्ति। तत्र वस्तुतत्त्वं किम् इत्युक्ते लघुत्वं नाम तत्र मृदुत्वकठिनत्वादीनां नाम लघुत्वं नाम गुरुत्वस्य अभावरूपम्। अस्माभिः पूर्वम् उक्तमासीत् यथा तमसः नवद्रव्यत्वं सिद्ध्यति वा न वा इति प्रश्ने अस्माकं तत्र चर्चायां तमसः दशमद्रव्यत्वं नास्ति एव, तर्हि तमसः तत्र तमः नाम किम् इत्युक्ते तत्र प्रौढप्रकाशक तेजसामान्य अभावः तमः, नाम अभावरूपत्वं तमसः, प्रकाश अभावरूपत्वमेव तमसः, अभावे अन्तर्भावः खलु। तत्र तथैव अत्र किं वदति इत्युक्ते लघुत्वं नाम तत्र गुरुत्वस्य अभावः, तर्हि लघुत्वं तत्र भिन्नरूपेण तत्र लघुत्वस्य निवेशनम् आवश्यकम् इति वद, लघुत्वस्य गुरुत्वाभावरूपं। तथैव मृदुत्वं नाम किम् इत्युक्ते अवयवसंयोगविशेषः, नाम तत्र शिथिल अवयवसंयोगः अस्ति चेत् मृदुत्वं, दृढतर अवयवसंयोगः अस्ति चेत् काठिन्यम् अथवा कठिनत्वं। तथैव अस्ति केवलं तत्र गुणः नास्ति, केवलम् अवयवसंयोगविशेषः, संयोगे एव अन्तर्भूतः, भिन्नरूपेण निवेशनीयं नास्ति इति वदति। अस्तु, अत्र पश्यामः, अस्तु अग्रे सरामः, अत्र किमपि नास्ति, बहु किमपि वक्तव्यं नास्ति, अत्र अग्रे सरामः इति मन्ये।
महोदय, मृदुत्वकठिनत्वयोः विषये पुनः वदति वा?
आं, नाम तत्र किम् उक्तम् इत्युक्ते मृदुत्वमपि अपि अत्र न निवेशितं, रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्व अत्र एतेषु तत्र मृदुत्वं न उक्तं, तर्हि कथं मृदुत्वमपि गुणः खलु इत्युक्ते सः वदति, भोः सत्यमेव उक्तं भवता, मृदुत्वं नाम गुणः एव, परन्तु तत्तु केवलं संयोगविशेषः, संयोगे एव अन्तर्भूतः, संयोगस्पत्र साक्षात् उक्तम् इति कृत्वा भिन्नरूपेण मृदुत्वम् अत्र निवेशनीयं नास्ति। तथैव कठिनत्वं, मृदुत्वं नाम तत्र अवयवसंयोगशैथिल्यं यत्र वर्तते तदेव मृदुत्वं, संयोगशैथिल्यं, संयोगविशेषः। तथैव तत्र संयोगदार्ढ्यं यत्र वर्तते, नाम दृढतरसंयोगदार्ढ्यं यत्र वर्तते तदेव तत्र कठिनत्वं, तर्हि संयोगविशेषः एव तदपि, अतः संयोगे एव अन्तर्भूतः, अतः अत्र भिन्नरूपेण न निवेशितः इति स्पष्टमस्ति वा भगिनि?
आं महोदय, धन्यवादः, स्पष्टमस्ति इदानीं
महोदय.
आम्,
प्रायः किञ्चित् विषयान्तरम्, अग्रे गन्तव्यं चेत् चिन्ता नास्ति, किन्तु गुणत्वे इतरभेद अनुमापकत्वं नास्ति इति उक्तं खलु?
आमां,
तत् कथम् इति किञ्चित् वक्तुं शक्नोति?
आं, तत्र चिन्तनं किं, तत्र महान् प्रपञ्चः अस्ति वयं, तत्र यदा किं भवति इत्युक्ते गुणः तत्र गुणः स्वेतरभिन्नः, गुणः स्वेतरभिन्नः गुणत्वात् इति अनुमितेः स्वरूपं भवति. नाम इतरभेद अनुमापकः गुणः स्वेतरभिन्न, नाम गुणः गुणात् गुणभिन्नभिन्नः इति, गुणभिन्नभिन्न, स्वं नाम गुणः, स्व इतरनाम गुणभिन्नः, तद्भिन्न नाम पुनः गुण एव, खलु? नाम गुणभिन्नभेदः अस्ति गुणे इति, नाम इतरभेद गुण इतरभेदगुणे अस्ति इति अर्थः. नाम गुण अनुमानवाक्ये किम् इत्युक्ते गुणः स्वेतरभिन्नः, नाम गुणे गुणभेद भेद अभावः वर्तते इति अर्थः. नाम गुण इतर अन्ये ये पदार्थाः सन्ति तेभ्यः गुणः भिद्यते, इतरेभ्यो भिद्यते, अथवा गुणः इतरभेदवान्, एवं सरलरूपेण वदामः चेत् गुणः इतरभेदवान् गुणत्वात् इति अनुमितेः स्वरूपम्. गुणः इतरभेदवान्, इतरभेदवान् नाम गुणभिन्नभेदवान् इति अर्थः, इतरभेदवान् गुणत्वात्. आम्,
अत्र हेतुः गुणत्वं साध्यं किं गुणे इतरभेदः,
इतरभेदः, परन्तु तत्र चिन्तनं किम् इत्युक्ते लक्ष्यतावच्छेदकहेतोः ऐक्यं भवति चेत् तत्र क्लेशः भवति अनुमाने, तत्र अनुमाने क्लेशः भवति इति कृत्वा, अत्र बहु किमपि विवरणमस्ति तत्र वर्णस्मिन्, तत्र किरणावलीग्रन्थे अत्र किञ्चिदिव दत्तमस्ति, तत्र किञ्चित् पश्यतु, यदि स्पष्टं न भवति चेत् पुनः पश्यामः. तत्र अनुमानवाक्ये यदि हेतु पक्षतावच्छेदक हेतु अपि गुणत्वं, पक्षतावच्छेदकमपि गुणत्वं भवति चेत् अनुमितिः नैव उदेति इति केचन जनाः वदन्ति. तर्हि अनुमितिः नैव उदेति इत्युक्ते इतरभेदस्य अनुमितिः न जायते इति अर्थः.
अवगतं, यथा पूर्वमपि चर्चितवन्तः हेतुसाध्योः ऐक्य.
आमां, सत्यं सत्यं,
महोदय. कथं चतुर्विंशति गुणा संख्या आगच्छति, एतत् न स्पष्टमस्ति मया.
हा, तत्र सम्यक् एव प्रश्नः, नाम तत्र गुणेषु चतुर्विंशति इति संख्या यदुक्तम्, इदानीं संख्या अस्ति द्वित्वं, द्वित्वं संख्या अस्ति, तर्हि पुस्तकद्वयं वर्तते, पुस्तकद्वयं वर्तते चेत् द्वित्वं कुत्र वर्तते? अहं वदामि पुस्तकद्वयं वदामि, तर्हि पुस्तकद्वयं वदामि चेत् द्वित्वं कुत्र वर्तते इत्युक्ते द्वयोः पुस्तकयोः द्वित्वसंख्या वर्तते, व्यासस्य वृत्ति इति वदन्ति. नाम तदा तत्र संख्या द्वित्वम् एकमेव, परन्तु द्वयोः वर्तते, प्रत्येकं तत्र वर्तते पुस्तके, तत् द्वित्वसंख्या पुस्तके वर्तते इति सम्यक्, परन्तु चतुर्विंशति या संख्या उक्ता, सा संख्या गुणेषु वर्तते वा न वा इति प्रश्नः, रूपे, रसे, गन्धे, व्यासद्यमान, नाम एकवारमेव सर्वत्र वर्तते चतुर्विंशतिगुणेषु, नाम चतुर्विंशतिः इति न वक्तव्यं, रूपरसगन्धस्पर्श इत्यादिकं द्वेषप्रयत्नधर्माधर्मसंस्कारेषु चतुर्विंशतिसंख्या, तत्र एका एव संख्या चतुर्विंशतिसंख्या, तत्र एतेषु गुणेषु वर्तते वा न वा इति प्रश्नः.
अस्तु, इदानीं स्पष्टं, धन्यवादः.
अस्तु अस्तु, अग्रे सरामः. अस्तु, अत्र इदानीं कर्मग्रन्थः एवं वदामः, षोडशपुटे, षोडशे पुटे उत्क्षेपणात् अपक्षेपणाकुञ्चन प्रसारणगमनानि पञ्चकर्माणि इति मूलं वाक्यं मूलवाक्यं. दीपिकायां किमुक्तम् इत्युक्ते कर्म विभजते उत्क्षेपणेति संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमत्वा इति उक्तम्. अस्तु, इदानीं किञ्चिदिव तत्र पश्यामः. अस्माभिः समवायिकारणम् असमवायिकारणम् एतत् सर्वं पूर्वमेव दृष्टमेव. तत्र कोऽपि वक्तुम् इच्छति वा तत्र असमवायिकारणस्य विषये? तत्र असमवायिकारणस्य द्वैविध्यं वर्तते. अत्र सुगमनमहोदय तत्र वक्तुम् इच्छति वा?
हा, प्रयत्नं करोमि महोदय. असमवायिकारणस्य लक्षणं भवति यत् यत् कारणं समवायेन स्थित्वा समवायेन कार्यं जनयति इति. तत्र द्वैविध्यं वर्तते, कार्येण सह इति एकं, कार्येण कारणेन सह इति एकं, कार्येण सह इति
अन्यं. सत्यमेव, अपरम् आम्.
प्रथमं तु उदाहरणम् उक्त्वा वदामि. तत्र घटस्य परिमाणम् इति स्वीकुर्मश्चेत् कपालपरिमाणं कारणे घटस्य समवायिकारणे कपाले स्थित्वा घटपरिमाणं जनयति इति कृत्वा असमवायिकारणं कपालपरिमाणम् असमवायिकारणं भवति, किन्तु कारणेन स्थित्वा घटपरिमाणं जनयति इति कृत्वा तत् कारणेन सह इति विभागे अन्तर्भूतं भवति.
आं, सत्यम्. अत्र अत्र कारणं नाम किम् अस्मिन् उदाहरणे? अत्र यत् घटपरिमाणं यदुक्तम् अत्र कारणेन सह,
अत्र कारणम् इत्युक्ते कपालः एव. समवायि घटस्य समवायिकारणं कपालः. कपाल परिमाणं तु परिमाणम् इति गुणः. तत्र घट कपालपरिमाणं घटस्य समवायिकारणे समवायेन स्थित्वा पुनः घटपरिमाणं जनयति. घटपरिमाणं तु घटे घटे अस्ति इति कृत्वा कार्येण इति इत्यत्र
तत्र किञ्चित् तत्र किञ्चिदिव व्यत्यासः जातः. तत्र प्रथमं क्रमेण पश्यामः. प्रथमं तावत् तर्हि घटं पश्यामः महोदय. इदानीं घटस्य कारणं कपालसंयोगः. तर्हि कपालसंयोगः घटस्य असमवायिकारणम्. अत्र अस्मिन् सन्दर्भे कार्येण सह इति भवति. तर्हि कार्येण सह नाम अत्र कार्यं नाम किम् इत्युक्ते घटः एव कार्यं. कार्यं घटः. तेन कार्येण सह घटेन सह कपालसंयोगोपि एकस्मिन्नेव अधिकरणे समवेतं वर्तते. नाम कार्यं यत् यः घटः तदपि कपाले समवेतः. कारणम् असमवायिकारणं कपालसंयोगः. सः संयोगोऽपि कपाले एव समवेतः. तर्हि कार्येण घटेन सह समवेतं सत् कार्यं घटं जनयति इति कृत्वा एतत् भवति प्रथमसमवायिकारणं. तर्हि द्वितीयासमवायिकारणं भवता यदुक्तं तदेव अस्ति. तत्र घटपरिमाणं परिमाणस्य कारणम् अस्ति, समवायिकारणम् अस्ति घटः. घटपरिमाणस्य समवायिकारणमस्ति घटः. तेन कारणेन सह एकस्मिन् अधिकरणे समवेतं सत् परिमाणं जनयति इति कृत्वा कपालपरिमाणं तत्र असमवायिकारणं. कपालपरिमाणं कपाले वर्तते, घटः अपि कपाले वर्तते. घटः घटपरिमाणस्य कारणं. तर्हि कारणेन सह घटपरिमाणस्य कारणेन घटेन सह एकस्मिन् अधिकरणे कपाले समवेतं सत् कपालपरिमाणं घटपरिमाणं गणयति इति कृत्वा एतद् भवति द्वितीयासमवायिकारणं. सम्यक्, तत्र द्वितीयासमवायिकारणं सम्यक् सम्यक् एव उक्तम्.
सत्यं महोदय, धन्यवादः।
अस्तु, तर्हि इदानीं पश्यामः, इदानीं द्वितीयासमवायकारणस्य विषयः। तर्हि अत्र किम् उक्तम् इत्युक्ते कर्मस्य लक्षणम् इदानीं, कर्मणः लक्षणम् इदानीं। तर्हि अत्र किम् उक्तम् इत्युक्ते संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म, कर्म द्वितीयं लक्षणमुक्तं कर्मत्वजातिमत्व, कर्मत्वजातिमत्वं। तर्हि इदानीं पश्यामः, वयं जानीमः अत्र स्मर्यते वा तत्र क्रिया क्रियातो विभागः ततः किमस्ति, क्रिया क्रियातो विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः तदनन्तरं क्रियानाशः आसीत् खलु। तर्हि वयं जानीमः तत्र संयोगस्य कारणं क्रिया भवति इति वयं जानीमः, संयोगस्य समवायिकारणं तु न भवति, संयोगस्य असमवायिकारणमेव भवति, तत् सत्यमेव। तर्हि किं वक्तुं शक्यते वा संयोग असमवायिकारणं कर्म इति वक्तुं शक्यते वा इति प्रश्नः उदे, संयोग असमवायिकारणं कर्म इति वक्तुं न शक्यते एव। किमर्थम् इति चेत् संयोग असमवायिकारणं कर्म वदामः चेत् संयोगे अतिव्याप्तं भवति, कुतः इति चेत् इदानीं पश्यामः। संयोगस्य असमवायिकारणं यथा कर्म तथैव संयोगोपि संयोगस्य असमवायिकारणं भवति, कथम् इति प्रश्नः। इत्युक्ते इदानीं पश्यामः द्वितीयासमवायिकारणस्य विषयः, किञ्चिदिव सूक्ष्मं पश्यामः। तर्हि इदानीं हस्तपुस्तकसंयोगः, हस्तपुस्तकसंयोगः, हस्तनाम अवयव, अवयव, तर्हि अवयवस्य संयोगः, पुस्तक अवयवसंयोगः, शरीरावयवहस्तः हस्तेन सह पुस्तकस्य संयोगः। तर्हि इदानीं शरीरं किम् इत्युक्ते शरीरम् अवयवी कुत्र वर्तते इत्युक्ते अवयवेषु वर्तते, यथा घटः कपाले वर्तते तथैव शरीरमपि स्व अवयवेषु वर्तते, हस्तः अपि अवयव एव। तर्हि अवयवे हस्ते शरीरं वर्तते। इदानीं हस्तपुस्तकसंयोगः जातः इति कृत्वा, हस्तपुस्तकसंयोगः जातः इति कृत्वा शरीरपुस्तकसंयोगोऽपि जायते, यथा यथा तत्र किमासीत् कपालस्य परिमाणम् आसीत् इति कृत्वा घटस्य परिमाणं जायते इति अस्माभिः दृष्टमासीत्। यथा कपालस्य परिमाणमादाय घटस्य परिमाणम् अस्माभिः दृष्टम् उपपन्नं भवति, अथवा घटस्य परिमाणं परिमाणम् उत्पद्यते इति अस्माभिः अदृष्टं, तादृशी एव परिस्थितिः अत्र अस्ति। अत्रापि कपालस्य स्थाने अस्ति हस्तः, तत्र आसीत् परिमाणम्, अत्र अस्ति संयोगः, हस्तपुस्तकसंयोगः, तत्र आसीत् कपालपरिमाणम्। कपालपरिमाणेन किं जातम् इत्युक्ते घटे परिमाणं जातम्, अत्र हस्तसंयोगेन किं जातम् इत्युक्ते शरीरपुस्तकसंयोगः जातः। तर्हि इदानीं शरीरपुस्तकसंयोगः कुत्र वर्तते, शरीरपुस्तकसंयोगस्य समवायिकारणं किम् इत्युक्ते शरीरमेव, शरीरपुस्तकस्य समवायिकारणं शरीरमेव। तर्हि कारणेन शरीरेण सह, शरीरेण सह कारणेन सह एकस्मिन् अधिकरणे हस्ते समवेतं सत् हस्तपुस्तकसंयोगः शरीरपुस्तकसंयोगं जनयति इति द्वितीयासमवायिकारणम् अत्र, तत्र हस्तपुस्तकसंयोगः शरीरपुस्तकसंयोगं प्रति द्वितीयासमवायिकारणम्। अतः शरीरपुस्तकसंयोगस्य असमवायिकारणं किम् इत्युक्ते संयोगः एव, नाम हस्तपुस्तकसंयोगः एव। तर्हि संयोग असमवायिकारणं वदामः चेत् संयोगे अपि अतिव्याप्तं भवति तत् लक्षणम् इति कृत्वा संयोगभिन्नत्वं निवेशनीयम्। तर्हि संयोगभिन्नत्वे निवेशिते सति किं भवति इत्युक्ते संयोगः व्यावृत्तो भवति, केवलं धर्म एव अवशिष्यते इति कृत्वा इदानीं संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म इति वक्तुं शक्यते। अस्तु, अत्र इदानीं तत्र सन्ध्या भगिनी प्रयत्नं करोति वा, अत्र किं किम् अस्ति संयोगासमवायिकारणम् इत्युक्ते संयोगे कथम् अतिव्याप्तं भवति इति विशदीकरोति वा?
महोदय प्रायः पूर्णतया न अवगतं, तत्र शरीरपुस्तकसंयोगं प्रति हस्तपुस्तकसंयोगः एव तत्र कारणम् इति तद् अवगतं। तर्हि तत्र न इतोपि किञ्चित् मम विवरणम् आवश्यकं, क्षम्यताम्।
अस्तु, नाम चिन्ता नास्ति। अत्र रत्ना भगिनी किञ्चित् वदति वा?
मायापि अन्तिम
अस्तु, चिन्ता नास्ति। प्रयत्नं रक्षा भगिनी प्रयत्नं करोति वा?
अस्तु महोदय, अत्र कर्मस्य लक्षणवाक्ये दलद्वयमस्ति, संयोगभिन्नत्वे सति संयोगासमवायीकारणं कर्म इति। तर्हि भवता एतावता यद् उक्तं तद् दलस्य सार्थक्यमेव, संयोगासमवायीकारणं कर्म इति तु स्पष्टमस्ति, कर्मजः संयोगः इति अस्माभिः दृष्टं। प्रथमवारं यदा हस्तपुस्तकयोः संयोगः जायते तदा हस्तम् उन्नय अथवा हस्तस्य क्रियातः संयोगः भवेत् इति कृत्वा कर्मणः संयोगः जायते इति कृत्वा संयोगस्य असमवायीकारणं भवति, संयोगस्य असमवायीकारणं कर्म भवति इति द्वितीयदलं संयोगासमवायीकारणं कर्म इति। तर्हि प्रथमदलं किमर्थं निवेशनीयम् इति यद् भवता उक्तं, हस्तपुस्तकसंयोगेन शरीरपुस्तकसंयोगः जायते खलु, तत्र संयोगजसंयोगः, अनेन किम् आगतम् इति चेत् संयोगः अपि संयोगस्य असमवायिकारणं, द्वितीयासमवायिकारणम् इति आगतम्। तद्वारणार्थं दलद्वयम् अत्र निवेशितम् इति मम
आम् सत्यं, तादृशी एव परिस्थितिः अस्ति। इदानीं स्पष्टमस्ति वा न वा तत्र सन्ध्या भगिनी, स्पष्टमस्ति वा? अन्यथा पुनः एकवारं वदामि।
इत्युक्ते अत्र संयोगः संयोगस्य असमवायिकारणम् अस्ति वा न वा अत्र तद् सम्यक् अस्ति?
तथैव तथैव, किमस्ति इत्युक्ते इदानीम् अस्माकं लक्ष्यम् अस्ति कर्मणः एव लक्षणम् इदानीं प्रवर्तमानम् अस्ति। ग्रन्थकारः इदानीं कर्मलक्षणं कर्तुम् इच्छति, तर्हि तत् लक्षणं किम् इत्युक्ते ग्रन्थकारः वदति संयोगभिन्नत्वे सति संयोग असमवायिकारणं कर्म इति ग्रन्थकारः वदति। इदानीं किमर्थं ग्रन्थकारः इति तत्र विशेषणदलं नाम सत्यन्तं यदस्ति विशेषणदलं, तत् किमर्थं स्वीकरोति? केवलं विशेष्य दलं संयोगासमवायिकारणं चेतावन्ना प्रयुक्तौ पर्याप्तं भवति वा न वा इति प्रश्नः। नाम संयोगासमवायिकारणं वयं जानीमः कर्म अस्ति इति पूर्वमेव वयं जानीमः, परन्तु केवलं कर्म एव संयोगस्य असमवायिकारणमस्ति वा, अन्यत् किमपि संयोगस्य असमवायिकारणमस्ति वा इति प्रश्नः। यदि केवलं संयोगस्य असमवायिकारणं कर्म एव अस्ति चेत् समस्या एव नास्ति, तदेव लक्षणं पर्याप्तं जातं। परन्तु संयोगस्य यदि असमवायिकारणं न केवलं कर्म परन्तु अन्यत् किमपि अस्ति चेत् तत्र अतिव्याप्तिदोषग्रस्तं लक्षणं भवति। तर्हि इदानीं किञ्चित् सूक्ष्मं परिशीलयामः चेत् किं भवति इति, किम् आयाति इत्युक्ते संयोगस्य असमवायिकारणं संयोगोऽपि भवति, न केवलं कर्म परन्तु संयोगोऽपि भवति। कथम् इत्युक्ते अस्माभिः यत् द्वितीयासमवायिकारणम् अस्माभिः यत् पूर्वं दृष्टं तस्य अत्र समन्वयः करणीयः। द्वितीयासमवायिकारणस्य कारणस्य यत् लक्षणं तस्य लक्षणस्य समन्वयः संयोग असमवायिकारणत्वेन भवति वा न वा इति, नाम संयोगस्य असमवायिकारणं संयोग भवितुम् अर्हति वा न वा इत्युक्ते भवत्येव। कथम् इत्युक्ते पश्यामः, तर्हि अस्माभिः उक्तमासीत् द्वितीयासमवायिकारणस्य लक्षणं किम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे समवेतं सत् कार्यं जनयति इति द्वितीयासमवायिकारणं। नाम कारणेन सह, अत्र कदाचित् किञ्चिदेव सन्देहः जायते, कारणेन सह इत्युक्ते इदानीं कार्यत्वेन अभिमतं यत् तस्य यत् कारणम् इति स्वीकर्तुं, तर्हि इदानीं नाम संयोग असमवायिक नाम तत्र कार्यमस्ति संयोगः, कार्यमस्ति संयोगः, तर्हि तस्य संयोगकार्यस्य असमवायिकारणं किं किं भवितुम् अर्हति इति प्रश्नः। तर्हि अस्माकम् उदाहरणमस्ति इदानीम् इति क्रियास्थलं नास्ति, इदानीं संयोगस्थलमादाय अस्माकं चिन्तनं भवति। क्रिया यदा क्रियया तत्र संयोगस्य नाम तत्र यदा नाम तत्र संयोगासमवायिककारणं कर्म, नाम संयोगस्य यदा संयोगः यदा उत्पन्नः भवति कर्मजनितसंयोगः, तत् स्थलम् अस्माकम् अभिमतमेव। यदि कर्मणा संयोगः जायते चेत् तत् सत्यमेव, तद् भवतु, तत् अस्माकम् इष्टम्। परन्तु किं संयोगेनापि संयोगो जायते वा? न केवलं संयोगेन संयोगो जायते, परन्तु संयोगो संयोगस्य असमवायिकारणं भवति वा? भवति चेत् अत्र समस्या। कर्मस्तु संयोगस्य असमवायिकारणं भवति इति वयं जानीमः, परन्तु किं संयोगः संयोगस्य असमवायिकारणं भवति वा? भवति चेत् समस्या। कुतः इति चेत् अस्माभिः कर्मणां लक्षणं किं कृतम् इत्युक्ते संयोगासमवायिकारणम् इति उक्तम्, परन्तु संयोग असमवायिकारणं न केवलं कर्म, अन्यसंयोगोऽपि भवति चेत् तत्र लक्षणस्य अतिव्याप्तिः। तर्हि भवति वा न वा इत्युक्ते उदाहरणं पुनः एकवारं पश्यामः। अस्माकं शरीरं, हस्तः, पुस्तकं, तर्हि हस्तस्य सञ्चालनम् इदानीं पुस्तके अस्माकं हस्तस्थापनं कुर्मः, तर्हि पुस्तकहस्तसंयोगः इदानीं जातः। तर्हि पुस्तकहस्तसंयोगः जातः, यथा घटे किमासीत् इत्युक्ते घटे घटस्य विषये किमासीत् इत्युक्ते घटस्य अवयवः कपालः, कपाले परिमाणमासीत्, कपाले परिमाणमासीत्, तर्हि कपालपरिमाणं किं करोति स्म तत्र इत्युक्ते घटपरिमाणं जनयति अथवा घटपरिमाणं जनयति। कपालपरिमाणं कुत्र अस्ति? कपाले अस्ति। कपालपरिमाणं कपाले अस्ति, कपाले घटोपि अस्ति। कपालपरिमाणं कपालपरिमाणं कपाले अस्ति, समवेतम् अस्ति, कपाले घटोपि समवेतम् अस्ति। घटः कारणं, कस्य कारणम् इत्युक्ते घटपरिमाणस्य कारणं, घटपरिमाणस्य कारणं घटः, तेन कारणेन घटेन सह एकस्मिन् अर्थे कपाले समवेतं सत् कपालपरिमाणं घटपरिमाणं जनयति। तर्हि कारणेन एकस्मिन् अर्थे समवेतं सत्, कारणं नाम समवायिकारणम् इति अर्थः, परिमाणस्य समवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत्। इदानीं तादृशी एव परिस्थितिः अत्रापि अस्ति, नाम संयोगः शरीरसंयोगः, शरीरसंयोगः एकः, हस्तसंयोगः एकः, हस्तसंयोगः शरीरसंयोगं प्रति असमवायिकारणं, हस्तसंयोगः शरीरसंयोगं प्रति असमवायिकारणं। तर्हि संयोग असमवायिकारणं संयोगः जातः, नाम शरीरसंयोगं प्रति हस्तसंयोगः असमवायिकारणं शरीरसंयोगं प्रति हस्तसंयोगः असमवायिकारणं द्वितीयासमवायिकारणं कुतः इति चेत् तत्र शरीरसंयोगं प्रति शरीरं समवायिकारणं तेन समवायिकारणेन सह हस्ते शरीरमपि समवेतम् अस्ति हस्तपुस्तकसंयोगोपि हस्ते समवेतम् अस्ति अतः कारणेन शरीरेण सह समवेतं सत् हस्तपुस्तकसंयोगः शरीरपुस्तकसंयोगं जनयति इति कृत्वा हस्तपुस्तकसंयोगः संयोगसमवायिकारणं जातम् तर्हि संयोग असमवायिकारणं वदामः चेत् संयोगोऽपि भवति इति कृत्वा तस्य व्यावर्तनार्थं संयोगभिन्नत्वं निवेशनीयं संयोगावसमवायकारणद्वयं संयोगः कर्म इदानीं संयोगभिन्नत्वे निवेशिते सति तत्र केवलम् एकमेव अवशिष्यते कर्म एव अतः लक्षणस्य समन्वयः तत्र परिष्कारः सम्यक् भवति इति स्पष्टमस्ति वा
आम् आं महोदय धन्यवादः
अस्तु
तर्हि तत्र यद् भवता उक्तं तद् यदि संक्षेपेण वदामः तत्र संयोगं प्रति तत्र न केवलं कर्म इति कारणमस्ति तत्र संयोगः अपि कारणमस्ति
सत्यमेव
अतः यदि वयं कर्मणः लक्षणं संयोगासमवायिकारणम् इत्युक्ते संयोगं प्रति असमवायिकारणम् इत्येव वदामः तर्हि तत्र शरीरपुस्तकसंयोगे यः संयोगः इति यद् तत्र कारणमस्ति असमवायिकारणं तस्मिन् अतिव्याप्तिः भवति इति कृत्वा तत्र तदेव असमवायिकारणं यद् संयोगभिन्नम् अस्ति इति तत्र वक्तव्यं
प्रथमदशकता
तदर्थम् आगतम्
अस्ति एवमेवं तथैव अस्ति
धन्यवादः महोदय
अस्तु तर्हि अग्रे सरामः खलु अस्तु इदानीं पठामः ननु इदानीं पूर्वपक्षिणः आक्षेपः ननु सर्वदैव पूर्वपक्षिणः आक्षेपसूचकः ननु भ्रमणादेरपि अतिरिक्तस्य कर्मणः सत्त्वात् पञ्च इत्यनुपपन्नम् इति चेत् न भ्रमणादीनामपि गमने अन्तर्भावात् न पञ्चत्वविरोधः इदानीं पूर्वपक्षी किं वदति भोः एतत् सर्वमपि एवमेवं तत्र कल्पितमेव कथम् उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारणगमनम् इति पञ्च एव उक्तम् पञ्चातिरिक्तानि अपि कर्माणि सन्ति खलु भ्रमणम् इति अस्ति भवता न उक्तमेव तत्र भ्रमणं कुत्र अस्ति तत्र तर्हि किं वदति इत्युक्ते भ्रमणादीनामपि गमने एव अन्तर्भावः इति सिद्धान्ति तत्पर गमने एव अन्तर्भावः तर्हि अत्र पुनः कश्चन प्रश्नः उदेति भोः भ्रमणादीनामपि गमने अन्तर्भावः वदति चेत् तत्र कदाचित् कन्दुकम् उपरि क्षिपामः चेत् तत्र कश्चन वदति भोः कन्दुकम् उपरि गच्छति इति कोऽपि वदति कस्यापि प्रतीतिः भवति उपरि गच्छति इति प्रतीतिः भवति तर्हि तत्रापि गमनस्य प्रतीतिः भवति गच्छति इति प्रतीतिः भवति चेत् तस्य को अर्थः गच्छति इति गमनस्य प्रतीतिः भवति तर्हि प्रतीतिव्यवहाराभ्याम् अर्थसिद्धिः इति नैयायिकाः वदन्ति भवतु सिद्धान्तानुगुणं कार्यं कर्तव्यं खलु भवन्तः एव स्वयं वदन्ति प्रतीतिव्यवहाराभ्याम् अर्थसिद्धिः इदानीं यदा उत्क्षेपणं क्रियते तदा अपि गमनस्य प्रतीतिः भवति इदानीं भवतः सिद्धान्तबलात् एव उत्क्षेपणमपि गमने एव अन्तर्भूतः खलु किमर्थं तादृशं पञ्चत्व इत्यादिकं तत्र प्रलापं करोति इति कश्चन पृच्छेत् तत्र किं समाधानं किम् उक्तम् इत्युक्ते भोः तत्र तथा तत्र गौतममहर्षिणा एवं प्रथमम् उक्तं तर्हि इदानीं मुनीनां विषये एतादृशः आक्षेपः न करणीयः तर्हि तत्र दिनकरि सिद्धान्तमुक्तावलीग्रन्थस्य दिनकरिव्याख्यानं यदस्ति तत्र किम् उक्तम् इत्युक्ते स्वतन्त्रेच्छस्य मुनेः नियोगपर्यनियोग अनर्हत्वात् इति नियोग नाम आज्ञा पर्यनियोग नाम तत्र प्रश्नादिकम् एवं किं कृतम् एवं किं न कृतम् इत्यादिकं न कर्तव्यं, यतोहि मुनिः सिद्धः, तर्हि तस्य यादृशी इच्छा भवति तथैव एवं तत्र शास्त्रस्य अपि रचना भवति, तत्र युक्तियुक्तमेव अस्ति, किञ्चिदिव भिन्नरूपेण तत्र निवेशनं कृतम् इति कृत्वा तादृशः आक्षेपः न करणीयः. स्वतन्त्रेच्छस्य मुनेः, मुनिः स्वतन्त्र इच्छः मुनिः, स्वतन्त्रेच्छस्य मुनेः तत्र नियोग एवं करोतु इति आज्ञा न करणीया, एवं किं कृतम् इति प्रश्नोऽपि न करणीयः इति किञ्चिदिव तत्र उक्तमस्ति. भवतु नाम तत्र पुनः एकवारं
महोदय अस्माकं नूतनवर्गे अपि केचन पृष्टवन्तः, तर्हि गमनानि इति उक्त्वा तस्मिन् सर्वाणि अन्यानि कर्माणि अनन्तानि कर्माणि सन्ति इति अपि अस्ति खलु?
सत्यमेव सत्यमेव तथैव.
तस्य आक्षेपणस्य उत्तरं किं सम्यक् न अवगतम् इत्युक्ते गमने गमनस्य प्रतीतिः अस्मिन्नेव
सत्यं प्रतीतिः भवत्येव, परन्तु तत्र भवति चेदपि मुनि एवं मुनेः व्यवस्था एवम् अस्ति इति कृत्वा तथैव स्वीकर्तव्यम् इति वदति ग्रन्थः तत्र व्याख्याकार.
अस्तु, गौतममुनेः
आं तत्र गौतममहर्षेः एवम्
आम् अस्तु
तत्र बहु सम्यक् तत्र उक्तमस्ति, स्वतन्त्रेच्छस्य मुनेः नियोगपर्यनियोग अनर्हत्वात् इति तत्र महादेवभट्टाचार्यः इति दिनकरी व्याख्यान व्याख्याता इति चिन्तयामि तथा उक्तं तत्र.
महोदय, रक्षाभगिन्याः प्रश्नः नावगतः, इत्युक्ते पञ्चकर्माणि इत्येव स्वीकुर्मः तदवगतं, किन्तु भगिन्याः प्रश्नः
तत्र अन्यानि बहूनि कर्माणि सन्ति, भ्रमणं रेतनं स्यन्दनं बहूनि तत्र कर्माणि सन्ति, तर्हि तेषां कुत्र अन्तर्भावः इत्युक्ते तेषां सर्वेषां गमने एव अन्तर्भावः कर्तव्यः, अतः पञ्चत्वं पुनः तत्र तादवस्थ्यमेव भवति, पञ्चत्वं न व्याहतं भवति इति अर्थः.
अस्तु, गमने एव अन्यत् सर्वं स्वीकृतं. अस्तु अस्तु महोदय, धन्यवादः.
परन्तु वस्तुतः विश्वे अनन्तानि इन्फैनैट् कर्माणि इति एव किल?
सत्यमेव सत्यं तत्रापि वर्गीकरणं कृतं, बहूनि उत्क्षेपणानि उत्क्षेपणव्यक्तयः भवेयुः तत्सर्वमपि उत्क्षेपणे, परन्तु सत्यमेव अन्यानि अपि बहूनि तत्र भवेयुः, तत्र सर्वेषामपि गमने एव अन्तर सत्यमेव भवेयुः तथैव.
इत्युक्ते महोदय तत्र गमनम् इति उपलक्षणत्वेन उक्तम् इति स्वीकृतं
आं तदपि वक्तुं शक्यते महोदय तथैव अस्ति न भ्रमणादीनामपि गमने अन्तर्भावात् न पञ्चत्वविरोधः. अस्तु, अग्रेसरामः वा? अस्तु, इदानीं तत्र एकवारम् एवं कुर्मः, लक्ष्मीभगिनी किञ्चिदिव तत्र पुनः तत्र सम्यक् अवगतं खलु संयोगभिन्नत्व इति संयोगासमवायकारणं कर्म अत्र किं किम् अस्ति एतत् सर्वं सम्यक् अवगतं वा न वा?
अवगतम् अवगतम् अस्तु, अस्तु अहं प्रयत्नं करोमि महोदय. कर्मस्य लक्षणवाक्यमस्ति संयोगभिन्नत्वे सति संयोग असमवायिकारणं कर्म. तत्र यदि हस्तपुस्तकसंयोगः इति उदाहरणं स्वीकुर्मः चेत् तत्र प्रथमं क्रियया हस्तपुस्तकसंयोगः संयोगः भवति, अनन्तरं तादृशसंयोगेन शरीर पुस्तकसंयोगः संयोगः भवति. प्रथमं यत् हस्तपुस्तकसंयोगः भवति तत् तत् प्रथमविध असमवायिकारणम्. अनन्तरं शरीरपुस्तक शरीर पुस्तकसंयोगः यत् भवति तत् द्वितीयविध असमवायिकारणं कारणेन भवति. अत्र 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 किमर्थम् अत्र किमर्थं लक्षणवाक्यं संयोगभिन्नत्वे सति इत्युक्ते संयोग असमवायिकारणं कर्मम् इत्युक्ते यदि अस्तु तत्र
केवलं संयोगासमवायिकारणं वदामश्चेत् तत्र संयोग अपि लक्ष्यते कर्मोपि लक्ष्यते तेन संयोगासमवायिकारणं संयोगोपि कर्म अपि तत्र द्वौ अपि तर्हि एकस्य आम् एकस्य बहिष्करणम् आवश्यकं. कथं वा तस्य व्यावर्तनं भवेत् संयोगस्य व्यावर्तनं कुतः इत्येत् अस्माकं लक्ष्यं कर्मलक्षणम् एव अस्माकं लक्ष्यं. तर्हि संयोगस्तु न इष्टः तर्हि संयोगस्य व्यावर्तनं कथं भवति इत्युक्ते संयोगभिन्नत्वे इति पदस्य निवेशनेन संयोग स्वयमेव अपगच्छति केवलं कर्म एव अवशि.
आम् अस्तु
सम्यक् एव अग्रे सरामः. तर्हि परममपरं चेति द्विविधं सामान्यं विभजते. सामान्यं नाम जातिः. तर्हि दीपिकायामस्ति सामान्यं विभजते परमिति परं परमधिकदेशवृत्ति अपरं न्यूनदेशवृत्ति सामान्यादिचतुष्टये जातिर्नास्ति. अत्र स्वस्थम् अस्माभिः पूर्वमेव पठितम् एतत् सर्वं किञ्चिदिव प्रयत्नं करोति वा रत्ना भगिनी तत्र दीपिका व्याख्यानं तत्र उदाहरणान् अपि तत्र प्रदर्शयति वा नाम अधिकदेशवृत्ति अपरं सामान्यं परं सामान्यं किम् अस्ति परा परापरसामान्यं किम् अस्ति इत्यादिकं प्रदर्शयति वा.
अस्तु प्रयत्नं करोमि महोदय विस्मृतं किञ्चित् प्रयत्नं करोमि. तत् परमपरं चेति द्विविधं सामान्यम् अस्तु. परमपरं चेति परसामान्यम् अपरसामान्यम् इति अर्थः पुनः तदेव लिखितं. परत्वं चाधि अधिकदेशवृत्तित्वं अपरत्वं न्यूनदेशवृत्तित्वं. प्रायः उदाहरणं किञ्चित् स्मरामि महोदय. अस्तु इत्युक्ते लेखनी पुस्तकस्य समीपम् अस्ति लेखनी कूप्याः समीपं नास्ति इति स्वीकुर्मः चेत् लेखनी पुस्तकं लेखन्याः परम् अपि च कूपी लेखन्याः अपरम् इति वा.
न अत्र किञ्चित् भिन्नः. तत् यत् उक्तं भवत्या तत् सम्यक् एव परन्तु तत्तु दिक्कृतपरं परत्व अपरत्व तत्र गुणः दिक्कृतं कालकृतं परत्वम् अपरत्वं तत्र तद् घटते. अत्र किम् इत्युक्ते अधिकदेश परम् इत्युक्ते पारिभाषिकम् अत्र पारिभाषिकं किम् अस्ति चेत् अधिकदेशवृत्ति एव परम् अधिकदेशवृत्ति इति नाम नाम अत्र किम् उदाहरणं किं वदामः उदाहरणं कोऽपि वक्तुमिच्छति वा.
द्रव्यं इति
सत्ता भवति द्रव्ये गुणे गुणे कर्मणि अपि तस्य अधिकदेशवृत्ति अस्ति. द्रव्यं द्रव्यत्वं भवति सर्वे द्रव्येषु सत्ता परं भवति द्रव्यत्वम् अपेक्षा कारणकि सत्ता भवति द्रव्येषु कर्मणि कर्मसु अपि गुणेषु. द्रव्यत्वं यदि वयं स्वीकुर्मः द्रव्यत्वम् अस्ति केवलं द्रव्ये पर द्रव्यत्वं पृथ्वीत्वं यदि वयं स्वीकुर्मः द्रव्यत्वं सर्वे द्रव्येषु अस्ति पृथ्वीत्वं केवलं पृथ्व्याम् अस्ति घटत्वं केवलं घटे अस्ति घटं घटत्वं भवति अपरं पृथ्वीत्वम् अपेक्षा पृथ्वीत्वं भवति अपरं द्रव्यत्वम् अपेक्षा एण्ड् द्रव्यत्वं भवति परं पृथ्वीत्वम् अपेक्षा.
सत्यमेव सत्यमेव. तर्हि परं नाम तत् अधिकदेशवृत्ति नाम इदानीं सत्यमुक्तम्, इदानीं पश्यामः सत्तासामान्यं यदस्ति, सत्ता, सत्ता नाम भावत्वं, सत्तासामान्यं कुत्र वर्तते इति द्रव्यगुणकर्मसु सर्वत्र वर्तते, यत्र यत्र तत्र सामान्यं भवितुम् अर्हति तत्र तत्र सर्वत्रैव सत्ता भवति. अतः सत्ता सर्वजाति अपेक्षया अधिकदेशवृत्ति सत्ता. तर्हि ततोपि न्यूनदेशवृत्ति किम् अस्ति? कर्मत्वजातिः, द्रव्यत्वजातिः, गुणत्वजातिः सत्ता अपेक्षया न्यूनदेशवृत्तयः जातयः. कुतः इति चेत् तत्र गुणत्वं केवलं गुणेषु भवति, सत्ता तु द्रव्यगुणकर्मसु भवति, अधिकदेशवृत्तिः. इदानीं गुणत्वम् अस्ति अथवा द्रव्यत्वम् अस्ति, तत्रापि द्रव्यत्व अपेक्षया यथा भवत्या उक्तं पृथिवीत्वं द्रव्यत्व अपेक्षया न्यूनदेशवृत्ति अपराजात् पृथिवी, तत्र पृथिवीत्व द्रव्यत्व अपेक्षया पृथिवीत्वं तत्र अपराजात्, तत्र सत्ता अपेक्षया द्रव्यत्वम् अपराजाति, पृथिवीत्व अपेक्षया द्रव्यत्वं पराजात्, एवम् एवं चिन्तनम्. अधिकदेशवृत्तिः अस्ति चेत् परा भवति, सापेक्षपरा. न्यूनदेशवृत्तिः तत् सापेक्ष, सापेक्षं न्यूनदेशवृत्तिः अपराजाति भवति. केवलं तत्र सरलमेव अस्ति. अपरं नाम न्यूनदेशवृत्तिः सामान्यादिचतुष्टयजातिर्न नास्ति इत्यस्य को वा अर्थः? सामान्यादिचतुष्टये जातिः नास्ति इति तत्र
धर्मः एव जातिः नास्ति इति मम अवगमनम्.
आं नाम तत्र अत्र किमस्ति इत्युक्ते सामान्य सामान्यादिचतुष्टये सामान्यम् आदौ अस्ति इति सामान्यादि. तर्हि सामान्यम् आदौ केषाम् अस्ति इत्युक्ते सामान्य विशेष समवाय अभाव इति चतुर्णाम् आदौ सामान्यमस्ति. अस्माकं तत्र सप्तपदार्थाः उक्तं खलु, द्रव्यगुण कर्म सामान्य विशेष समवाय अभावाः सप्तपदार्थाः. तत्र सामान्यात् आरभ्य ये चतुर्णां पदा तत्र चत्वारः पदार्थाः ये सन्ति तेषु सामान्यं नाम जाति न विद्यते. नाम को वा अर्थः इत्युक्ते जातौ सामान्ये सामान्यं न भवति, नाम जातौ जातिः न भवति, विशेषे जातिः न भवति, समवाये जातिः न भवति, अभावे जातिः न भवति. तर्हि तत्र सामान्यादिचतुष्टयः, चतुष्टयं नाम चतुर्णां समूहः इति चतुष्टयं, सामान्यमादौ अस्ति इति सामान्यादि चतुर्णां समूहः सामान्यचतुष्टयः. तर्हि तेषु जातिर्नास्ति इति अर्थः. जातिः केवलं द्रव्यगुणकर्मसु एव भवति इति अर्थः. केवलं द्रव्यगुणकर्मसु जातिः भवति इति अर्थः.
इत्युक्ते महोदय तत्र सामान्यत्वम् इति किमपि नास्ति, अपि च पदार्थत्वम् इत्यपि किमपि नास्ति.
आं पदार्थत्वम् अस्ति परन्तु तत्र द्रव्यविभाजक उपाधिः जातिः नास्ति. जातिः नाम पदार्थत्वं नाम तत्र केवलं धर्मः, तादृशः धर्मः जातिः नास्ति. क्षम्यतां, पदार्थविभाजक उपाधि न, पदार्थविभाजक उपाधयः द्रव्यत्वम् इत्यादयः, परन्तु तत्र जातिः नास्ति. सत्यमेव.
महोदय, सामान्ये सामान्यत्वम् इति धर्मः खलु,
सामान्ये सामान्यत्वं धर्म इति वक्तुं शक्यते.
पदार्थत्वम् इति यथा शुकवनमहोदयेन उक्तं, तत्तु विभो पदार्थविभागोपाधिः.
सत्यमेव. अस्तु, इदानीं अग्रेसरामः किञ्चिदिव. नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव. दीपिकायामस्ति विशेषं विभजते नित्ये इति, नाम नित्य इति तत्र पुनः प्रतीकधारणं. व्याशिक्षासितस्य ग्रन्थस्य एकभागस्य उल्लेखः इति प्रतीकधारणं नित्य इति. पृथिव्यादिचतुष्टयस्य परमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि. तर्हि नित्य तत्र नित्यद्रव्यवृत्तय वृत्तयोः वृत्तयः इति उक्तं नाम नित्यद्रव्येषु एव विशेषाः वर्तन्ते. तर्हि इदानीं नित्यम् इति किं, नित्यत्वस्य इदानीं लक्षणमेव न कृतं, नित्यम् इति किं न उक्तम् इति कृत्वा ग्रन्थकारः वदति भोः नित्यं नाम पृथिव्यादिचतुष्टयस्य परमाणवः नाम पृथिवी अप्तेजो वायु जलं पृथिवी अप्तेजो वायु आकाशस्तु नास्ति, एतत् चतुष्टयस्य परमा आकाशस्य परमाणु एव नास्ति. तर्हि पृथिव्यादिचतुष्टयस्य ये परमाणवः ते सर्वे अपि नित्याः, आकाशादिपञ्चकमपि नित्यं. तर्हि आकाशादिपञ्चकं किमस्ति, पृथ्वी अप्तेजो वायु आकाश किमस्ति, कालतिगात् कालतिगात्मनांसि किं किम् आसीत् पश्यामः, पृथिव्यप्तेजो वायु आकाश कालतिगात्मनांसि नवैव इति अस्माभिः दृष्टवान्. तर्हि आकाश आदौ अस्ति इति आकाशादिपञ्चकं तत्र इति पञ्चकम् एते अपि नित्यानि एव, एतानि अपि नित्यानि एव, मनांसि इति उक्तं नित्यानि एव. मनः अपि नित्यः, आत्मा अपि नित्यं नित्यः, कार्तिक् अपि नित्या, कालोपि नित्यः, आकाशोपि नित्यः, नित्यद्रव्याणि एतानि आकाशादि तत्र एव विशेषः वर्तते इति अर्थः, तत्रैव विशेषः. तर्हि विशेषस्य विषये किञ्चिदिव पुनः चर्चां कुर्मः अत्र. विशेषस्य विषये किञ्चिदिव पठन्तु अपि तत्र जातिवादकसङ्ग्रहः इति अस्ति, अनन्तरम् आगच्छति. तत्र इन्द्रियस्य यदा लक्षणं कुर्मः तदा इन्द्रियत्वं किमर्थं जातिः न भवति इति तत्र साङ्कर्यनामकः दोषः आगच्छति, सः दोषः जातिवादकः. विशेषः अपि तत्र जाति भवितुम् अर्हति, कुतः इति चेत् तत्र जातिबाधकग्रस्तो भवति. विशेषस्य यदि जातिं स्वीकुर्मः चेत् तत्र स्वीकर्तुं न शक्यते, कुतः इति चेत् तत्र जातिबाधकत्वम् आगच्छति. तत्र श्लोकः वर्तते, किञ्चिदिव तस्य परिशीलनं कुर्मः तत्र अग्रिमे वर्गे पठन्तु. परन्तु यदि समयः लभ्यते चेत् श्लोकः वर्तते, व्यक्तेरभेदस्तुल्यत्वं सङ्करो वा सङ्करोता नवस्थितिः रूपहानि असम्बन्धो जातिबाधकसङ्ग्रहः इति तत्र श्लोकः वर्तते. तं श्लोकम् अपि परिशीलयामः. तर्हि विशेषे कथं तस्य तत्र समन्वयः भवति, इन्द्रिये कथं तस्य समन्वयः भवति, एतत् सर्वं तत्र अग्रिमे वर्गे पश्यामः.
महोदय एकः प्रश्नः अस्ति. आकाशादिपञ्चनित्यद्रव्येषु यद्यपि तानि द्रव्याणि तथापि तत्र सामान्यं नास्ति, केवलं धर्मः.
सत्यमेव सत्यमेव.
आकाशत्वं कालत्वं
इति चेत् तत्र तत्र किमर्थम् इति तत्र अग्रिमे वर्गे पश्यामः. तत्र जातिवादकाः तत्र सन्ति. एकव्यक्ति अस्ति चेत् सर्वथैव जातिः न भवति. उदाहरणं
तस्मिन् विषये तु स्पष्टता अस्ति अस्ति महोदय, किन्तु आत्मानः अनन्ताः अपि च मनांसि अपि अनन्तानि, तत्रापि जातिः न स्वीक्रियते, केवलं धर्मः, आत्मत्वम् अथवा मनत्वम् इति यत्किमपि इति वा?
न तथा न. तत्र किम् उक्तमासीत्, तत्र आकाशादिपञ्चके सामान्यं न उक्तमासीत् खलु. तत्र किम् उक्तमासीत् इत्युक्ते तत्र सामान्यादिचतुष्टये इति उक्तमासीत्, तत्तु पदार्थ उद्देशे अपि. तत्र इदानीं पश्यामः पदार्थस्य विषये किं, द्रव्यगुणकर्मसामान्यविशेषसमुदाय अभावः, तत्र जाति नास्ति इति उक्तमासीत्.
इति अवगतं महोदय, तद् तद् पदार्थस्थले अवगतं. विशेषस्य विषयः अत्र इति अवगतं, किन्तु किञ्चित् विषयान्तररूपेण एव पृच्छामि. आकाश
आत्मत्वजाति अस्ति एव भगिनि, कुतः इति चेत् आत्मद्रव्यम्
अस्ति,
आत्मद्रव्यं. तर्हि द्रव्यगुणकर्मसु जाति भवत्येव.
परन्तु आकाशः यद्यपि द्रव्यं तस्मिन् जातिः न वदामः, यतोहि आकाशः एकः एव.
सत्यं, जातिवादकाः सन्ति चेत् द्रव्ये अपि न भवति इति.
अस्तु, तर्हि मनसि अपि जातिः अस्ति इति स्वीक्रियते.
मनस्तु जातिः स्वीक्रियते, सत्यमेव.
धन्यवादः महोदय.
इत्युक्ते आकाशः आकाशे काले दिशि च जातिः न स्वीकृतः.
सत्यमेव.
अस्तु अस्तु.
कुतश्चित् एकमेव अस्ति इति कृत्वा कालोपि एकः.
अस्तु महोदय. अत्र नित्यद्रव्यवृत्तयः विशेषाः इति, तत्र वृत्तयः इति पदस्य नित्यद्रव्येषु विद्यमानाः इत्येव अर्थः किल?
नित्यद्रव्यवृत्ति नाम नित्यद्रव्येषु वृत्ति यस्य अस्ति इति,
विद्यमानत्वं यस्य अस्ति इति.
आम् सत्यं सत्यं तथैव.
अस्तु धन्यवादः महोदय.
अस्तु नमस्कारः, अनेन विरमामः. धन्यवादः. नमस्कारः.
धन्यवादः महोदय.
सर्वधन्यवादः महोदय.